एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। देशे प्रथमवारं स्तनार्बुदस्य वंशानुगत परीक्षणं सफलं सम्भूतमस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयस्य अनुसारेण राष्ट्रिय जनस्वास्थ्य प्रयोगशालायां स्तनार्बुदस्य परीक्षणं सफलं सम्भूतम् अस्तीत्यतः अतः परं राष्ट्रिय जनस्वास्थ्य प्रयोगशालायामेव स्तनार्बुदस्य वंशानुगत परीक्षणं विधास्यते। एतत्पूर्वम् अस्य परीक्षणाय भारतदेशे प्रेषणस्य अनिवार्यता आसीत्। भारतदेशे स्तनार्बुदस्य वंशानुगत निदर्शन परीक्षणाय 60,000 रूप्यकाणि अपेक्ष्यन्ते स्म। राष्ट्रिय जनस्वास्थ्य प्रयोगशालायाम् एतदेव परीक्षणम् 30,000 रूप्यकैः विधातुम् व्यवस्थापितास्तीति स्वास्थ्य जनसंख्या मन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। सीमान्तकृत विपन्न समुदायानां छात्राणां कृते सहजतया उच्चशिक्षायाः प्रदानाय मध्य प्रदेश सर्वकारेण प्रदेशस्य सर्वभ्यः शतादपि अधिक छात्राभ्यः छात्रवृत्ति प्रदीयते। दलित विपन्न मुस्लिम परिश्रमी समूहेषु चतुर्षु विभाजनं कृत्वा छात्रवृत्तेः प्रदानाय साधारण पक्षे प्रतिवर्षं 25,000 प्राविधिक पक्षे 35,000 च रूप्यकाणि प्रदातुं व्यवस्था विहितास्तीति मध्य प्रदेश शिक्षा निर्देशनालयस्य निमित्त निर्देशक ठूलो बाबु दाहाल असूचयत। पर्याप्त संख्यायां छात्रवृत्ते प्राप्त्यर्थम् आवेदनानि प्राप्तानि सन्तीत्यतः सर्वेभ्यः जनपदेभ्यः समानरूपेण छात्रवृत्तेः प्रदानार्थं छात्राः चेष्यन्ते इति निमित्त निर्देशकः दाहालः अज्ञापयत्। एवमेव मधेश प्रदेश सर्वकारेण मधेशान्दोलनस्य सशस्त्र द्वन्द्वस्य च हुतात्मनां परिवारेभ्यः स्वास्थ्य सुरक्षण कोषस्य व्यवस्था विधातुं निर्णीतमस्ति। मधेशान्दोलनस्य सशस्त्र द्वन्द्वस्य च हुतात्मनां 1,081 परिवारेभ्यश्च स्वास्थ्य सुरक्षण कोषस्य व्यवस्थायै सम्बद्ध निकायेन सह संविधा सम्भूता स्थिति मधेश प्रदेश सर्वकारेण ज्ञापितं वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना राष्ट्रिय बाल कल्याण परिषद नेतृत्वे ह्यस्तना दिवस देशम बाल विवाह मुक्तम राष्ट्रम विधातुम संचालितस्य अभियानस्य संकल्प पत्रे हस्ताक्षराणि कृतानि सन्ति। बाल विवाह मुक्त नेपाल राष्ट्रिय अभियानस्य प्रतिनिधिविषय ह्य बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्भूते मेलने प्रधानमन्त्री ओली संकल्प पत्रे हस्ताक्षराणि कृत्वा अभियानस्य सफलताम् ऐक्षत। तदवसरे प्रधानमन्त्री ओली बाल विवाह अपराधोऽस्तीत्यतः एतद्विरुध्य अभियानं सञ्चाल्य देशं बाल विवाह मुक्तं राष्ट्रं विधातुं सर्वैः एकीभवनस्य आवश्यकतां दर्शितवान्। राष्ट्रपतिः रामचन्द्र पौडेलः श्रमस्य सम्मानेन सह आर्थिक भौतिक विकासस्य माध्यमेन देशं समृद्धिर्माग्रे अग्रेसरं विधातुम् अद्यतनी आवश्यकता अस्ति इति कथयति। संयुक्त ट्रेड यूनियन समन्वय केन्द्रेण ह्यः काष्ठमण्डपे आयोजितं 6ं श्रम सम्मेलनं सम्बोधयन् राष्ट्रपतिः पौडेलः अन्याय वर्तमानेभ्यः विपन्न वर्गेभ्यः न्याय प्रदानस्य आय श्रमयोः सम्मानस्य च संस्कृति एव देशविकासस्य आधारोऽस्तीति प्रत्यपादयत्। नेत्ररोगस्य उपचारस्य साधारण जनेषु सहजतया प्राप्त्यर्थं नेत्र विश्वविद्यालयः महत्वपूर्णो भविष्यति इति सम्बद्धैः जनैः उक्तं वर्तते। नेत्र विश्वविद्यालयमा आधृत्य विमर्शनाय ह्यः उपविष्टे राष्ट्रिय सभायाः विधायन व्यवस्थापन समितेः उपवेशे तिलगंगा चिकित्सालयस्य प्रमुख कार्यकारीधिकृतः डा रीता गुरुङ नेत्र सम्बद्धस्य रोगस्य अध्ययनानुसन्धानाय विश्वविद्यालयः महत्वपूर्णो भविष्यति इति उदैरयत। उपवेशे सांसदाः साधारण जनेभ्यः नेत्र विश्वविद्यालये सहजतया न्यूनेन शुल्केन अध्ययनस्य अवसर प्रदानार्थं विधेयके सहज व्यवस्था विधेयत्यत्र बलं दत्तवन्तः। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते भरतपुर महानगरस्य विकासः सन्तुलित रूपेण सर्वेषु क्षेत्रेषु सम्भूतोऽस्ति। चितवन जनपदस्य भरतपुरस्य मेघौली स्थाने ह्य आयोजिते भरतपुर भ्रमण वर्षस्य वार्षिकोत्सव कार्यक्रमे अध्यक्षः प्रचण्ड भरतपुर महानगरपालिकायां सम्भूतानां समीचीन कार्याणाम् अन्य स्थानीय सर्वकारैरपि अनुकरणं विधेयम् इति प्रावोचत। कार्यक्रमे भरतपुर महानगर प्रमुख रेणु दाहाल भरतपुरस्य मेघौली स्थानस्य च पर्यटन क्षेत्रस्य रूपेण विकासाय कार्यं सञ्चलदस्तीति असूचयत। प्रतिनिधि सभा अन्तर्गताया पूर्वाधार विकास समित्या अन्तर्गतया पूर्वाधार विकास समित्या समितेः कार्यतालिकां निर्मातुम् उपसमिति संघटितास्ति। समितेः ह्यस्तनोपवेशेन समितेः कार्यं प्रभावपूर्णं विधातुं कार्यतालिकायाः निर्माणाय पञ्चसदस्यीया उपसमिति संघटितास्ति। उपसमितौ नेपाली कांग्रेस दलस्य पक्षतः दिनेश कुमार यादव, नेकपा एमाले दलस्य पक्षतः ठाकुर प्रसाद गैरे, नेकपा माओवादी केन्द्रस्य पक्षतः माधव सापकोटा, राष्ट्रिय स्वतन्त्र दलस्य पक्षतः निशा डाँगी, राप्रपा दलस्य पक्षतः बिना लामा च सदस्याः वर्तन्ते। अद्यतः पञ्चविंशत्यधिक द्विसहस्रतमं नवीन ख्रीष्टवर्षं प्रारब्धमस्ति। ख्रीष्ट धर्म प्रवर्तकस्य येशु ख्रीष्टस्य जन्मवर्षात् तद्धर्मस्य आचार्येण ग्रेगोरियन इत्यनेन नूतन वर्षस्य प्रारम्भ कृतः आसीत् इत्यतः ख्रीष्टवर्षेदं ग्रेगोरियन पञ्चाङ्गानुमतम् अस्तीति स्वीक्रियते। नूतन वर्षस्य स्वागतं नेपालेन सहैव समग्रेऽपि विश्वे अनेकेषु देशेषु विभिन्नैः कार्यक्रमैः सह विहितमस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन प्रतिनिधिसभाया सचिव पदे झापा जनपदस्य हर्क राज राई नियुक्तोऽस्ति। नेपालस्य संविधानस्य अनुसारेण सभामुखस्य देवराज घिमिरे विदस्य परामर्शेन झापा जनपदस्य शिवसताक्षी नगरपालिकाया द्वितीय वडा क्षेत्रस्य राई सचिव पदे नियुक्तोऽस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। सार्वजनिक सेवा प्रसारणात् रेडियो नेपालात् नेपाल टेलिभिजन नाच प्रसार्यमाणानां समाचाराणां कार्यक्रमाणां च विषयवस्तूनि अन्तर्राष्ट्रियम् अभ्यासं राष्ट्रियाम् आवश्यकतां चाधृत्य निर्मेयानि इत्यत्र बलं दत्तमस्ति। सार्वजनिक सेवा प्रसारणे कार्यक्रमाणां विषयवस्तूनां चयनस्य कार्यक्रमस्य उत्पादकस्य दायित्वस्य उत्तरदायित्वस्य च विषये ह्य सिंहप्रासादे आयोजिते अभिमुखीकरण कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्ष डा महेन्द्र विष्ट सार्वजनिक सेवा प्रसारणस्य अन्तर्राष्ट्रिय मान्यतायानुसारेण राष्ट्रिय आवश्यकतां विचार्य पूर्णतया सार्वजनिक प्रसारणस्य निर्माणं प्रति सर्वैः ध्यानं देयम् इति अवोचत। सार्वजनिक सेवा प्रसारणस्य निमित्त प्रशासकीयाधिकृत विष्णुराम न्यौपाने सार्वजनिक सेवा प्रसारण नेपालस्य नायब कार्यकारी निर्देशक खगेन्द्र न्यौपाने खत्री च सार्वजनिक सेवा प्रसारणस्य उद्देश्यानुसारेण प्रसारण सामग्री प्राथमिकतायां संस्थाप्य प्रसारणं जनकेन्द्रितं विधातुं सक्रिया भवितुं सर्वान् अनुरुद्धवन्तौ। नेपाल तैल निगमेन पेट्रोल तैलेन्धनस्य डीजल तैलेन्धनस्य च मूल्यं वर्धितमस्ति चेत् विमानेन्धनस्य तैलेन्धनस्य मूल्यं न्यूनीकृतं वर्तते। निगम संचालक समिते ह्यस्तनोपवेशेन पेट्रोल तैलेन्धने प्रतिलिटरमितं एकरूप्यकं डीजल तैलेन्धने प्रतिलिटरमितं रूप्यकद्वयं च वर्धितमस्तीति ज्ञापितं वर्तते। निगमेन विमानेन्धनस्य आन्तरिको डयनपक्षे प्रतिलिटरमितं द्वे रूप्यके, अन्तर्राष्ट्रिय डयनपक्षे च काष्ठमण्डपस्य कृते प्रति किलोलिटरमितं पञ्चदश अमेरिका देशीय डलर मुद्रा न्यूनीकृता वर्तन्ते। इति समाचाराः।